नमस्ते। आरभामहे। वाक्यकारं ररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्। गतसु पाठेषु एतान् विषयान् ज्ञातवन्तः। अति हसीत परे कानि कार्याणि भवन्ति इति उक्तम्। खरि परे कानि कार्याणि भवन्ति इति ह्यः चर्चितम्। अत्र कानिचन उदाहरणानि श्रूयते वा? हरि ओम्। अस्तु, ओके, अस्तु। सन्तः परीक्ष्य अत्र यथा ह्यः उक्तम् उपध्वनीयः भवितुमर्हति अथवा विसर्गः, रूपद्वयं भवितुमर्हति। सन्तः परीक्ष्य उपध्वनीयः, सन्तः परीक्ष्य अथवा विसर्गः एव, सन्तः परीक्ष्य इति रूपद्वयम्। कर्पूरः पावकस्पृष्टः, एते शब्दाः श्लोकात् स्वीकृताः। कर्पूरः पावकस्पृष्टः किं भवति? अत्रापि पूर्ववत् रूपद्वयं भवति। कर्पूरः पावकस्पृष्टः इति उपध्वनीयः, इन्दिराजी उत्तमम्, अथवा विसर्गः एव। अयोग्यः पुरुषः, अत्रापि उपध्वनीयः पक्षे विसर्गः। अयोग्यः पुरुषः अथवा अयोग्यः पुरुषः। यः पश्यति समानं पयः कणान् इत्यस्ति। अत्र जिह्वामूलीयः, ककारः वर्तते, विसर्गात् परं ककारः अस्ति, अतः जिह्वामूलीयः पक्षे विसर्गः। कण तत्र लघुखण्डम्, अत्यन्तं लघुखण्डं कणः इति कथ्यते। द स्मालेस्ट् पीस् आर् वेरि स्माल् पीसस् केन् बि काल्ड् कण। एनि नाट् ओन्लि द पीस् हियर् पयः इस् क्षीरं, सो द small amount of milk, it can be kana. Yojakah tatra, atra kaha varnah bhavati vaktum shaknuvanti, uttamam Indiraji. Atra takaraha, तकारः अस्ति, अतः विसर्गस्य स्थाने सकारः विसर्गस्य स्थाने सकारः एवञ्च योजकस्तत्र योजकस्तत्र मूढाः तु अत्रापि समानम् अत्र विसर्गात् परं तकारः अस्ति अत्रापि विसर्गात् परं तकारः अस्ति अतः मूढास्तु उत्तमं कल्याणी सन्तोषः त्रिषु समानं पुरवदेव उत्तमम् अतः अत्रापि विसर्गस्य स्थाने सकारः सन्तोषस्त्रिषु नष्टैः तु समानम् अत्रापि विसर्गात् परं सकारः अतः नष्टैस्तु कालः तस्य विसर्गात् परं तकारः अतः सकारः विसर्गस्य स्थाने कालस्तस्य मानसः तस्य समानं सर्वत्र सकारः एव साधोः तु अत्रापि उत्तमं साधोस्तु यः च अत्र चकारः वर्तते एवञ्च किं भवति शक्तिप्रियजी उत्तमं सो विसर्गस्य स्थाने आदौ सकारः ततः परं श्चुत्वं श्चुत्वसन्धिः अतः सकारस्य शकारः एवञ्च यश्च इति रूपम् प्रथमं सकारः ततः षकारः यश्च दासाः ते पूर्ववत् तकारः अस्ति अतः सकारः एव दासास्ते ततः सुखम् अत्र अपि अत्र विसर्गस्य स्थाने सकारः भवति किन्तु अत्र विकल्पेन मया ह्यः दर्शितं श ष स एतेषु परेषु विकल्पः अस्ति अतः अत्रापि विसर्गः अपि भवितुमर्हति सकारः अपि भवति अस्तु इदम् इदानीं केचन अपवादाः अथवा विशेषनियमाः प्रदर्श्यन्ते यत् तेषु चित्रेषु न दर्शितं पूर्वं चित्रद्वयं दर्शितं तत्र ये विषयाः न उक्ताः ते विषयाः इदानीं प्रदर्श्यन्ते नकारान्तपदस्य विषये कश्चन नियमः अस्ति अत्र लिखितं नान्तं पदं नकारान्तं पदम् उदाहरणार्थं गच्छन् पठन् लिखन् कुर्वन् एतादृशानि नकारान्तानि पदानि सन्ति नकारान्तात् पदात् यदि चकारः टकारः अथवा तकारः अम्परकः अर्थात् तस्मात् परम् अम् भवेत् अम् इति प्रत्याहारः अकारात् आरभ्य मकारपर्यन्तम् अ इ उन् ऋ लृक् एवोङ् ऐ औच् हयवरट् लण् ज्ञामागणनम् यः कोऽपि वर्णः अम् वर्णः कश्चन अम् प्रत्याहारे विद्यमानेषु वर्णेषु कश्चन परे भवेत् तादृश अम्परक चकारः टकारः तकारः यदि परे अस्ति कस्मात् परमस्ति नान्तात् पदात् तदा नकारस्य स्थाने रेफः भवति ऋत्वम् इति लिखितं वस्तुतः दिस इज द आदेश इज एक्चुअली इज रु किंतु उकारस्य लोपः भवति अतः रु इति अवशिष्यते अतः मया अत्र रु इति लिखितम् उदाहरणं दर्शयामि रेपात् पूर्वस्य वदामि एकम् उदाहरणं पश्यामः तदा स्पष्टं भवति अत्र पश्यन् इति नकारान्तं पदं वर्तते नकारः अन्ते अस्ति पश्यन् तस्मात् परं चकारः अस्ति चु प्लस् आ चालयति चकारः चकारात् परम् आकारः आकारः अम् वर्णः अम् प्रत्याहारे आकारः अपि अस्ति अ इत्यनेन दीर्घस्यापि ग्रहणं अ इ उन् प्रथमः वर्णः अकारः अकारेण सर्वेषाम् अपि भेदानां ग्रहणं भवति दीर्घस्य पुतस्य तस्मात् अत्र अम् नाट् आम् अम् एवञ्च अम् परे अस्ति तादृशः चकारः अत्र वर्तते अम्परकचकारः अस्ति तस्मात् नकारस्य स्थाने ऋकारः भवति ऋत्वं भवति अर्थात् ऋ अवशिष्यते एवञ्च नकारस्य स्थाने ऋकारः पश्यर् चालयति ततः रेफात् पूर्वस्य अनुनासिकः पक्षे ऑप्शनल् सो देयर कैन बी टू फॉर्म्स अतः पक्षे इति लिखितं रेफात् पूर्वस्य अनुनासिकः आर् अनुस्वारः अनुनासिकः अथवा अनुस्वारः अत्र रेफात् पूर्वं कः वर्णः अस्ति अकारः अस्ति पश्य ऋ रेफात् पूर्वम् अकारः अस्ति अकारस्य अनु अकारः अयम् अनुनासिकः भवति पक्षे सो पश्य चालयति अथवा अनुस्वारः रेफात् पूर्वम् अत्र अनुस्वारः लिखितः अनुस्वारः भवति अनुस्वारः कश्चन अन्यः वर्णः इस् अ सपरेट् इस् डिफरेण्ट् लेटर् अनुस्वारः अनुनासिकः इस् अ टैप् आफ् स्वर स्वर लेटर्स् सो अकारः अनुनासिकः अकारः अनुनासिकः अकारः अत्र किन्तु अनुस्वारः आफ्टर् अकार इस् डिफरेण्ट् लेटर् सो अ अनुस्वार सो अ इस् अ लेटर् एण्ड् अनुस्वार इस् अनदर् लेटर् देर् आर् टू लेटर्स् अतः रेफात् पूर्वम् अकारात् परं सो बिफोर् र आफ्टर् अ अनुस्वार इस् इन्सर्टेड् एवञ्च रेफात् पूर्वं पक्षे अनुनासिकः भवति रेफात् पूर्वं यः वर्णः अस्ति सः अनुनासिकः सम्पद्यते अथवा रूपद्वयमस्ति पक्षे अनुस्वारः रेफात् पूर्वम् अनुस्वारः भवति ततः इदानीं रेफात् परं चकारः अस्ति रेफस्य किं भवति चकारः खर् वर्णः अतः प्रथमं रेफस्य विसर्गः भवति फस्ट् प्रियस्ट् विसर्ग देन् विसर्गस्य स्थाने सकार सिन्स् चकार इस् खर् दीस् रूल्स् आर् अप्लिकेबल् विसर्ग विसर्गस्य स्थाने सकारः ततः परं सकारस्य स्थाने स्तुत्वेन शकारः अतः पश्यंश्चालयति दीस् रूल्स् विनो खरिपरे खर्वर्णे परे एवं विसर्गः विसर्गस्य सकारः सकारस्य शकारः तत् मया गतपाठे उक्तम्। अत्र नूतनः नियमः कः, नकारान्तं पदं चेत् तस्मात् यदि चकारः टकारः तकारः अम्परकः वर्तते तर्हि नकारस्य स्थाने ऋत्वं भवति। पुनः रेफात् पूर्वं पक्षे अनुनासिकः अस्मिन् अत्र अस्ति, पक्षे अनुस्वारः एवञ्च रूपद्वयं भवति। रेफस्य स्थाने चकारः खर्वर्णः इत्यतः विसर्गः सकारः ततः शकारः। पश्यंश्चालयति, पश्यं पश्यंश्चालयति, एवं पक्षे अनुनासिकः पक्षे अनुस्वारः। अन्यत् एकम् उदाहरणम् अत्र, पठन् इति नकारान्तं पदं वर्तते, टीकां टकारः आदौ अस्ति, टकारात् परम् ईकारः वर्तते, ट् प्लस् इ टी, ईकारः अम् प्रत्याहारे अन्तर्भवति ईकारः, अतः अम्परकटकारः अस्ति। तादृश अम्परकटकारे परे नकारस्य स्थाने रेफः अर्थात् ऋत्वम्। एवञ्च पठन् टीकां ततः पठर् टीकाम्, इदानीं रेफात् पूर्वं पक्षे अनुनासिकः, पूर्वं कः वर्णः अस्ति, अकारः अस्ति, अकारः अनुनासिकः सम्पद्यते, अथवा रेफात् पूर्वम् अनुस्वारः, अनुस्वारः रेफात् पूर्वम् अकारात् परं, सो इस् इन् बिट्वीन् रेफ अण्ड् अकार, इस् अनुस्वार इन्सर्टेड् इन् बिट्वीन् रेफ अण्ड् अनुस्वार, सोरि रेफ अण्ड् अकार, अतः पठ मध्ये अनुस्वारः, ततः परं ऋ टीकाम्। एवञ्च पक्षे अनुनासिकः पक्षे अनुस्वारः, ततः परं किं भवति, टकारः खर्वर्णः अस्ति, अतः रेफस्य स्थाने विसर्गः, यथा अत्र लिखितमस्ति रेफस्य स्थाने विसर्गः, विसर्गस्य सकारः, ततः परं स्तुत्वं न भवति, यतः अयं टकारः अस्ति किन्तु ष्टुत्वं प्रवर्तते, अतः ष षकारः, पठंष्टीकाम् अथवा पठंष्टीकाम् इति रूपद्वयम्। तृतीयम् उदाहरणम्, गच्छन् तरति, अत्र नकारान्तं पदमस्ति गच्छन् इति, तस्मात् तकारः वर्तते, अत्रापि त् प्लस् अ, अकारः अम् प्रत्याहारे अन्तर्भवति, अतः अम्परकतकारः परे अस्ति, तस्मिन् परे नकारस्य स्थाने ऋत्वं गच्छर् तरति, ततः रेफात् पूर्वम् अकारः अनुनासिकः सम्पद्यते, पक्षे अनुस्वारः, ततः तकारः खर्वर्णः इत्यतः आदौ पूर्ववत् विसर्गः ततः सकारः, अत्र स्तुत्वं ष्टुत्वं वा न भवति, तकारः वर्तते अतः स्तुत्वसन्धिः अपि नास्ति ष्टुत्वसन्धिरपि नास्ति, गच्छंस्तरति अथवा गच्छंस्तरति। अस्तु, पक्षे मीन्स् विकल्पेन, सत् आम् पक्षे मीन्स् विकल्पेन, वेङ्कटरामन्जी प्रश्नः वर्तते किं, हस्तः उद्धृतः अस्ति, वेङ्कटरामजि
हरि ओम् महोदय
प्रश्नः वर्तते किम्
अहं न श्रूयते मया
प्रश्न न श्रूयते
न श्रूयते वाय्स् ब्रेक् भवति
किमर्थं न जानामि प्रश्नः कोऽपि अस्ति वा
हरि ओम्
हरि ओम् प्रश्नः वर्तते वा
प्रश्नः
नास्ति हस्तः उद्धृतः अस्ति अतः प्रश्नम् अस्तु अस्तु एवञ्च अयं नियमः प्रायः इदानीं ज्ञातः नकारान्तं पदं नकारान्तात् पदात् अं परकः चकारः तकारः तकारः वा यदि अस्ति तर्हि नकारस्य स्थाने रुत्वं प्रवर्तते ततः रेफात् पूर्वं पक्षे अनुनासिकः पक्षे अनुस्वारः इति तत्र नियमः अस्तु अग्रे एतद्विषये प्रश्नः अनुनासिक इस् मोस्ट्लि यूस्ड् इन् वेदिक् रिसैटेशन् यस् अनुनासिक या सो जनरली वि यूस् अनुनासिक सो अनुस्वार इस् लिटल् बिट् डिफिकल्ट् टु प्रनौन्स् आल्सो सो इवन् इन् नार्मल् यूसेज् नार्मल् सम्भाषण संस्कृत आल्सो वि यूस् अनुनासिक अस्तु अपवादद्वयं टु मोर् देर् आर् सम् एक्सेप्शन्स् सः एषः एताभ्यां हल्वर्णे परे विसर्गस्य नित्यं लोपः भवति अयम् अपवादः अस्ति सः पुनः एषः पदद्वयस्य विषये कश्चन अपवादः सर्वदापि हल्वर्णे परे सर्वदा अत्र खर् हश् इति विभागः नास्ति हल्वर्णे परे सर्वेषु हल्वर्णेषु परेषु नित्यं विसर्गस्य लोपः अतः पूर्वोक्तः नियमः पूर्वं चित्रे यः नियमः उक्तः सः अनयोः शब्दयोः विषये न अन्वेति अनयोः सर्वदापि लोपः एव अनयोः परस्य विसर्गस्य सर्वदापि लोपः एवञ्च रेफः खर्वर्णे परे तु विसर्गः भवति हश्वर्णे परे आदौ रेफः भवत्येव किन्तु तस्यापि विसर्गः विसर्गस्ततः लोपः उदाहरणार्थं सः रामः स रामः विसर्गस्य लोपः एषः कृष्णः एष कृष्णः विसर्गस्य लोपः एवं सर्वत्रापि विसर्गस्य लोपः प्रवर्तते सत्यम् अत्र नित्यं विसर्गस्य लोपः नित्यं विकल्पेन नास्ति अत्र कश्चन प्रश्नः अस्ति पद्मनाभन्जी पृष्टवन्तः उत्तमम् अत्र मया पूर्वं चकारः टकारः तकारः इति लिखितमासीत् पूर्वस्मिन् चित्रे महाप्राणः अस्ति चेत् किम् इति पृष्टं वस्तुतः महाप्राणचकारः महाप्राणठकारः महाप्राणथकारः अस्ति चेदपि पूर्वोक्तस्य नकारस्य स्थाने रुत्वं भवति विकल्पे पूर्ववदेव पूर्वोक्तः नियमः अन्वेति किन्तु पश्यन् छात्रः इति उदाहरणं दत्तम् एवं तादृश उदाहरणानि भवितुमर्हन्ति किन्तु एतस्य उदाहरणानि अधिकानि न दृश्यन्ते छकारस्य ठकारस्थकारस्य उदाहरणानि बहु अल्पानि अतः तत्र न लिखितम् आधिक्येन पुस्तकेषु ग्रन्थेषु अध्ययनकाले एते चकार टकार तकाराणाम् एव उदाहरणानि लभ्यन्ते, अतः ते एव वर्णाः मया पूर्वमुक्ताः. किन्तु सूत्रे एते महाप्रणठकारः 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 अपि अस्ति. यदा सूत्रं दर्शयिष्यामि तदा तत्र स्पष्टं भवति. अस्तु. हा, अत्र नित्यं लोपः. नित्यं लोपः नाम सन्धेः विवक्षायाम् इफ् सन्धिः एव न विवक्षितः चेत् लोपः न भवति. नित्यम् इति पदेन सन्धिः विवक्षितश्चेत्, संहिता विवक्षिता चेत् नित्यं लोपः. संहिता एव न इष्टा तर्हि लोपः न प्रवर्तते. सः रामः इति प्रयोगः भवत्येव. सः इति, सः इति एकं निमेषम्. अत्र अन्यत्र उदाहरणार्थं केनचित् पृष्टं सः इति किं भवति इति. सः इति यदि वर्तते तर्हि इदं अत्र एव द्रष्टव्यम्. इति कुत्र अस्ति? इकारः अत्र अस्ति. एवञ्च सः नाम अकारात् परं रेफः सर् सर् इति किं भवति? अत्रापि लोपः भवति. अत्र कः नियमः अस्ति? लोपः. एवञ्च अत्रापि लोपः अस्ति एव, किन्तु अयं तु सामान्यनियमः. अयं तु सामान्यनियमः. सर्वदापि अत्र अचिपरे सर्वदा लोपः अस्ति एव, विशेषनियमः न. किन्तु हसिपरे अत्र अन्यानि कार्याणि आसन्, उकारः इत्येवं कार्याणि आसन् हसिपरे. तत्सर्वं न प्रवर्तते. तत्रापि सः एषः एतौ शब्दौ चेत् विसर्गस्य रेफस्य वा विसर्गः भवति, विसर्गस्य लोपः एव. अतः मया अत्र दर्शितं सः विशेषः. हरिपरे विशेषः, अतिपरे किं भवति? अत्र लोपः एव अस्ति, अतः लोपः भवत्येव. अस्तु. अर्जुन उवाच इति केनापि लिखितम्. अर्जुन उवाच इत्यत्रापि एवमेव. अर्जुनर् उवाच उकारः अस्ति, एवञ्च अर् इत्यस्मात् उकारे परे रेफस्य लोपः. सः सामान्यनियमः एव, अत्र विशेषः कोऽपि नास्ति. एषः एव नियमः अन्वयति. सो डस् नित्यं लोपः मीन्स् आल्वेस्? आल्वेस् इत्यस्य सन्धेः विवक्षायां. सो वेदर् सन्धि इस् इण्टेण्डेड्, सो इट् डिपेण्ड्स् आन् स्पीकर्. अतः सन्धेः विवक्षा अस्ति चेत् लोपः करणीयः एव. सन्धेः विवक्षा एव नास्ति तर्हि लोपः न भवति. अतः नित्यम् इत्यनेन सन्धेः विवक्षायां नित्यं लोपः इत्यर्थः. इस् आल्टर्नेट् फार्म् लेफ्ट् टु द यूसर्. सर्वत्रापि सन्धिः वाक्ये सन्धिविवक्षाम् अपेक्षते. अतः वाक्ये सन्धिः करणीयः उत न इति प्रयोक्तुः इच्छा. यः वाक्यस्य प्रयोगं करोति तस्य इच्छामवलम्ब्य सन्धिः भवति. सन्धेः विवक्षा एव नास्ति, कुत्रापि सन्धिः न प्रवर्तते. सन्धेः विवक्षा अस्ति तर्हि नित्यं लोपः अत्र. किन्तु पूर्वं मया उक्तं ष ष स एतेषु वर्णेषु परेषु विकल्पः अस्ति इति. सन्धेः विवक्षायामेव विकल्पः सः. वेन् सन्धि इस् इण्टेण्डेड् देन् ओन्लि टु फार्म्स् forms are possible. Yesterday we discussed about dikhvamooliya and visarga, or upadhmaniya and visarga. Those two forms are possible when sandhi is intended. In sandhe vivakshayame rupadvayam. Sandhi na vivakshitah chet rupam kiyampe na bhavateva, yathastateva. Tatra niyamasya kasyapi anvayah na bhavati. निमिषम् अत्र प्रश्नाः प्रायः सन्ति. पर्वतनाथन्जी
नमस्ते महोदय.
नमस्ते.
मेषः राशिः, मेषराशि इति राशिः अस्ति, तत्रापि अपवादः अस्ति वा? द्वय अपवादद्वयमेव भवता उक्तं, मेषः राशिः, एषः राशिः, तद्वदेव मेषः राशिः अपि मया दृश्यते, तत्रापि मेषराशिः नित्यं वा?
न, तत्र समासः क्रियते
सः एषः, तद्वदेव मेषः अपि श्रूयते कर्णेन.
न न न, मेषराशिः इति प्रयोगः समासः अस्ति.
न न, मम प्रश्नः मेषः राशिः. यदि यदि विभजनं करोमि मेषः राशिः, इदानीं मेषः राशिः इति लेखने तत्रापि मेषराशिः विसर्गलोपं भवति वा? एषः इव एव दृश्यते मेषः.
न न, तत् सः एषः अनयोः शब्दयोः विषये एव सूत्रे उक्तम्. एतत् ततोः सुलोपः इति सूत्रम् आरभ्यते सूत्रे.
तादृशं श्रूयमाणशब्दं
न न न न, सदृशशब्दः न. सः इति अन्ते अस्ति, तत् एवं न स्वीकरणीयम्. एतत् ततोः इति सूत्रे उच्यते. इति
अन्यः प्रश्नः, प्रमुख फाण्ट् भवता पूर्वं दत्तं, तत्र अपि तत्रापि अनुनासिका सिम्बल्, अनुनासिका सिम्बल् ऐ केनाट् पुट् दट् वाट् एवर् इस् अपियरिङ्ग् इन् वेदास् दट् सिम्बल् इस् देर् सम् फाण्ट् वित् अनुनासिका, वित् अनुनासिका लैक् प्रमुख
अनुनासिक
चन्द्रबिन्दु, चन्द्रबिन्दु अनुनासिका आर् you call it by some maybe I am not expressing properly, that is either I can put a dot or I can put a chandra bimbu and bindu and dot, but the chandra bindu and dot, is there a font just like Pramukh, because in Pramukh it is not there.
Okay, I will check. Maybe Varaha has that. Varaha you can also put swaras and some Vedic symbols are there in Varaha.
भवान् लिखितुं शक्यते वा? अहं द्रष्टुं पश्यामि. परः परः
साफ्ट्वेर् अस्ति, तेषामेव फाण्ट्स् अपि वर्तन्ते.
धन्यवादः धन्यवादः.
परः देवनागरी इत्यादि अस्ति.
धन्यवादः.
अस्तु अस्तु मां. रावजी, प्रश्नः वर्तते वा?
I had a question, but you know, I think it got clarified. When you say saha eshaha pare alpa chet visargasya lopam bhavati chukke, is it left to the user?
Satyam. So sandhi is always left to the user, means in the sentence. If there is samasa, then sandhi is compulsory. If it is sentence, means saha gacchati or saha ramaha. So in now there is no samasa in these sentences. Saha ramaha, saha gacchati. So in such places sandhi is optional, means if the user is intended by the user, then sandhi is applicable, sandhi rules are applicable. If it's not intended, then sandhi rules are not applicable.
So if I want I can say Ramaha or Saha Ramaha, both of them, it is left to my choice, right?
Yes, yes, correct.
Okay, thank you.
Okay. Meenakshi ji?
Hello.
Yes.
Namaste. Sir, Esha.
तत्र ओके, सो यु आर् आस्किङ्ग् दिस् सी सः देन् एषा एकारः अत्र अस्ति एषा तो रेफस्य लोपः भवति देन् स एषा नौ आफ्टर् डूयिङ्ग् लोप सन्धि रूल्स् आर् नाट् अप्लिकेबल् आफ्टर् डूयिङ्ग् दिस् रेफ लोप नौ अच्छन्ति रूल्स् आर् नाट् अप्लिकेबल् इट् मीन्स् काण्ट् अप्लै वृत्ति सन्ति सैषा यु काण्ट् डु सैषा स एषा इत्येव
बट् इन् द मन्त्रा सैषा गणेश विद्या
in Vedic mantras all Paninian rules are optional okay so it is different but in normal Sanskrit we can't do this
okay thank you
because the these rules are in Tripadi Tripadi means last three padas of Ashtadhyayi and Achyanti rules are in sixth chapter of Ashtadhyayi షష్ఠే అధ్యాయే సంతి సో ఆఫ్టర్ డూయింగ్ త్రిపాది ఆఫ్టర్ అప్లైయింగ్ త్రిపాది రూల్ వి కాంట్ అప్లై సపాసప్తాధ్యాయ రూల్ దెర్ఫోర్ అత్ర స్వర సంధి పునః న భవతి వేదే భవితుం అర్హతి
థాంక్ యూ
అస్తు ఓకే ओके अस्तु ओके नो अस्तु सो प्रश्नाः समाप्ताः प्रश्नः वर्तते वा देर् इस् सम् नाय्स् कमिङ्ग् फ्रम् दि बेक्ग्रौण्ड् यस् because some program is going on in this village some songs are played okay idanim kanitana sutrani ye vishayaha patitaha tat sambandhani sutrani tra pradarshayami yenata how come chutvam and stutvam are applied kimartham eda edi sakarah chutvasya stutva sandhau kimuchate sakarat param stoh stuna sakarat param अत्र तकारः चेत् स्तुत्वं भवति सकारात् परं टकारः चेत् स्तुत्वं भवति ओके प्रायः अत्र पर्वतनाथ प्रश्नः वर्तते
नमस्ते सैषा सैषा इति प्रश्नमासीत् वा सा एषा सैषा भार्गवी विद्या इति वेदवचनं तत्र सा एषा इति स्त्रीलिङ्गं सा स्त्रीलिङ्गम् अतः सैषा
एवम् स्त्रीलिङ्गे अस्ति सम्यक् विसर्गः एव नास्ति तर्हि दोषः नास्ति सत्यम् उत्तमं पुनः
कयापि प्रश्नः पृष्टः तदर्थमेव अहम् इदं वदामि सैषा
उत्तमं सत्यं सत्यम् अन्यः एकः नियमः अस्ति पाणिनेः अत्र विशेषनियमः एकः वर्तते केवलं सशब्दस्य सः इत्यस्य विषये अतः इदानीं पृष्टम् अतः किञ्चित् इदं स्मर्यते मया सः इति शब्दस्य विषये एव उक्तं तत् श्लोके एव अन्यत्रापि न केवलं श्लोके यदि लोपकरणेन एव यदि पादपूरणं कर्तुं शक्यते पादः नाम अत्र पादे नियमः भवति अष्टाक्षराणि भवेयुः एकादशाक्षराणि भवेयुः एवं नियमाः भवन्ति यदि लोपः क्रियते चेदेव पादपूरणं भवति तदा लोपः कर्तुं शक्यते इति पाणिनेः कश्चन नियमः अस्ति उदाहरणार्थं सैष दाशरथी रामः अथवा इति अत्र सैषदाशरथी रामः इति कश्चन श्लोकः श्लोकस्थः उद्धृतः पादः सः एषः सैष अत्र सकारस्य लोपः कृतः सन्धिः अपि कृतः
परन्तु सैषदाशरथि वेदवचनं न रामायणवचनम् इव दृश्यते पुराणार्थमपि वेद इव रिलाक्सेशन् आर् द रिलाक्सेशन्
न न इदं नाट् ओन्लि अबौट् वेद बट् एनी श्लोक श्लोके श्लोकस्य विषये केवलं सो इट् केन् बि रामायण महाभारत रघुवंश एनी श्लोक यदि लोपकरणेन एव पादपूरणं तदा एव अदर्वैस् वि शुड् नाट् डू दिस् यदि अन्यः मार्गः नास्ति पादपूरणार्थम् अन्यः मार्गः नास्ति लोपः क्रियते चेत् एव पादपूरणं भवति तर्हि लोपः करणीयः अन्यथा न करणीयः उदाहरणार्थं स एव मुक्त्वा इति कश्चन श्लोकः अस्ति अत्र एतादृशलोपः न देर् आर् टु लोपास् सो दिस् इस् नार्मल् लोप बिकास् आफ्टर् डूयिङ्ग् दिस् लोप सन्धि रूल्स् आर् नाट् अप्लिकेबल् स एव इत्येव दिस् इस् नार्मल् दिस् इस् एक्सेप्शन् अत्र सन्धिः भवति किन्तु एतादृशलोपः लोपकरणेन पादपूरणं चेदेव करणीयः
इति पाणिनेः सूत्रं
सत्यं पाणिनेः सूत्रमस्ति सोचिलोपे चेत् पादपूरणं सूत्रे उक्तं पादपूरणम् इति पादपूरणं चेदेव लोपः करणीयः इत्युक्तं
धन्यवादः
अस्तु अतः स एव इति कश्चन यदि श्लोके अत्र लोपः न भवति अतः अत्र पादपूरणार्थं सन्धिः नापेक्षितः सन्धिं विना पादपूरणं भवति तादृशस्थाने लोपः न करणीयः उत्तमम् स्वामिनाथन् जी प्रश्नः वर्तते किम्
When you say Saisha, the Sandhi rules are not applied once Lopaha occurs Saisha you don't apply except in exceptions however the Chutvam and Shutvam you continue applying it even after the Lopa Visarga Lopa right so how do they because he said Sandhi once the Lopa occurs and you don't apply it anymore
Okay. So you are asking about Chutta Sandhi.
Right. So there we continue applying the other rules and then finalize it. Here we stop right here.
Okay. See, Uttamam. These Achandhi rules are in Sapad Sapta Adhyay. They are in Shashta Adhyaya Sandhi. Achandhi rules. But this Shtutva, Shtutva, etc., they are in Tripadi only, at the end of Ashtadhyayi, these rules. There are Ashtame Adhyaya Eva Santi, Ante Santi. Ataha, so, after Tripadyaha, Tripadyam Vidyamana Sutrasya, Pravritti Anantaram, Sapan Sapta Adhyayam Vidyamanam Sutram Na Pravartate. किन्तु त्रिपाद्यामेव एतानि सूत्राणि अन्ते सन्ति सी स्तुत्वा इस् 8440 स्तुत्वम् सो अष्टाध्यायः अन्ते अस्ति स्तुत्वसन्धिः स्तुत्वमपि तथैव अष्टाध्यायः 41 इस् स्तुत्वा And you can see these Visarga Sandhi rules. They are in 8-3. You can see all these rules here. 8-3, like that. So, Stutva Sandhehe, Stutva Sandhehe, Puramewa, Visarga Sandhi Rasti, Ashtadhyayam. Ataha, Visarga Sandhehe Anantaram, Stuttum, Stuttum, Pravartate. Kintu, Achandhi Nabhavati. Kimartam Achandhi Nabhavati? अच्छन्धिः षष्ठे अध्याये अस्ति सिक्स्त् चाप्टर् सो आफ्टर् अप्लैङ्ग् द रूल्स् विच् आर् इन् 8-3 आर् like this, after applying these rules, we can't apply a rule which is in 6th chapter.
So that's
okay.
A hierarchy.
Yes. So it's reverse is not possible. So tripadyah anvaya tripadyam vidyamanasya sutrasya parvrtteh param sapada saptadhyayam sapada saptadhyayi 7 adhyayas plus prathama pada of ashtama adhyaya sapada saptadhyayah sapada saptadhyayam vidyamanani sutrani na pravartante tripadyam vidyamananam sutranam pravrtteh param sapada saptadhyayam vidyamanani sutrani na pravartante. Okay, so therefore we can't apply rules like this. So we have to follow that order. And so but in Tripadi, since these rules are in Tritiya Pada, we can apply the rule which is in Chaturtha Pada.
Thank you.
Okay, namaste. Yeah. Kalyan Krishnanji.
Hi, good evening. I just want to re-emphasize the fact, even though it has been told many, many times, that the order of the Panini Sutras are very important. The first bunch of changes take place 1 through the first pada of chapter 8. And then once you go into chapter 8, pada 2, 3, and 4, you cannot go back and change anything no matter how the rules apply.
Yes.
Right? It took me a very long time to really accept and get it in my brain. But
okay.
I mean, I understand it now.
Okay. Yeah. So that's very important to understand the application of sutras.
Yeah, it's the same thing with the antarangam and the bahirangam. That took me a very long time to get it figured out.
Okay.
Right.
Okay.
Thank you. Thank you.
Okay, then yeah. Swaminathan ji, prashna vartate kim?
No, thank you. I already answered that question.
Okay. Astu. Rao ji?
Yeah. It is like a cart moving. When the cart is moving, you cannot pick up something behind, but you can pick up something that you can see ahead. So all the sutras, especially the Tripadi, you cannot pick up any sutra from behind or prior to 8.1 or 8.2, but looking forward, whatever sutra comes after the particular sutra you have applied, you can always apply that, right? Okay.
Yeah.
See, 8.2, 8.3, 8.4 are Tripadi.
Okay. Yeah.
So, yeah, like that. If you pick from the where you put that 2.3, you cannot look back into this square, but you can look forward into the next square, which has that is prohibited. That is right. Exactly. That's what I said. When a cart is moving, you cannot pick up something that has fallen behind. But if you see something ahead, you can pick that up. Like if the sutra is 8.3, 15, 8.3, 17, and if this sandhis are in 8.4, you can, because this is in the same Tripadi, you can apply the sandhis. Is that right?
Yes, correct.
Okay.
Yes. Okay.
Thank you.
Okay, yeah. Janayarji. Ekam Nimesham. I am trying to unmute you, but it's not working. No, I can't unmute you. I don't know why it is. IRG. I'm trying but it's not working. No, it's not working. So you can type the question. Okay, yeah. Astu. Atra kanitana sutrani santi. Sesham artham dani maha. Prathamam sutram asti ataha roho uhu aplutat aplute. Atoror aplutat aplute. Iti sutram. Atra pashantu shashte adhyaye asti idam sutram. Shashta adhyayasya prathama pade asti. So, etani sarvani sutrani. Sutra trayam api shashte adhyaye asti tataha ashtame adhyaye. Atra idam sutram atra darshayami prathamam asmin chitre ayam yaha bhagah asti akarat param refaha hraswakarat param refaha tasmat param punaha hraswakarah iti asti tarhi refasya sthane ukarah bhavati iti maya uktam asit etasya etat sambandha vishayasya sutram aham pradarshayan asmi atah sutrasya vivaranam karomi tatah param punah idam chitram pashyamah tada spashtata agacchati atra atah roho uhu apurute maya purva muktam asit ataha yada takarasya prayogah kriyate paninina tada takarat purvam yaha varnah asti idanim udaharanartham atra at ityuktam at ataha ataha iti panchami bhakti at evancha hrasva akarat param takarah uccharitah ataha hraswakarasya eva grahanam yasmat varnat param takarah uccharete tasya eva grahanam iti paninehe niyamah puram pradarshitah maya ataha atra at ityanena hraswakarasya eva grahanam ataha evancha hraswakarat ityarthah ataha ityanasya hraswakarat ityarthah atrapi panchami asti panchamyantam padadvayam asti vancha aplutat ataha aplutat ataha arthat aplutat akarat aplutat akarat aplutat akarat parasya roho sthane uhu bhavati maya pura muktam ru ityatra ukarasya lopaha bhavati evancha ru itteva avashishyate ataha roho itinena ru ityasya grahanam roho sthane uhu bhavati irkarasya sthane ukaraha bhavati kada aplute ati saptami asti ataha pare ityarthaha aplute saptami ati ityapi saptami aplute at hraswakare pare aplute hraswakare pare iti sutrasya artha aplutat ataha parasya roho sthane roho iti shashti ataha sthane iti artha atra ataha iti panchami ataha parasya iti artha aplutat ataha parasya roho shashti roho sthane uhu prathama uhu bhavati aplute iti saptami aplute ati pare aplute ati pare iti sutrasya artha atra ketana vishayah santi adya yavachakyam vadami punah shvah vadami पाणिनेः क्रमः एवं सामान्यतः प्रत्ययेषु सकारः भवति. उदाहरणार्थं राम रामः इति प्रथमाविभक्तेः एकवचने रूपं रामः इति. तत्र प्रत्ययः कः इति चेत् सु इति प्रत्ययः, राम इति अस्य प्रातिपदिकम् इति अस्य नाम, राम सु इति प्रत्ययः, उकारस्य लोपः भवति, सु इति अवशिष्यते. एवञ्च राम सु, ततः सकारस्य स्थाने ऋत्वं भवति. अत्र एकं सूत्रमस्ति ससजुषोरुः इति, एतस्य विवरणं पुनः करोमि. इदानीं यावदपेक्षितं तावदेव वदामि. सकारान्तस्य पदस्य रुः भवति इति सूत्रस्य अर्थः. रामस् इति सकारान्तं पदं, रामस् सकारान्तस्य पदस्य रुः भवति. रुः भवति इत्यनेन उकारस्य लोपः, अतः सकारस्य स्थाने ऋकारः भवति, रामर् इति रूपं जायते. रामर् सकारस्य सकारान्तस्य पदस्य रुः, रामर् इति ऋकारस्य. इदानीं रामर् अस्ति इति यदि पदं वर्तते, अस्ति रामर् अस्ति, इदानीम् अस्य अतो अस्य नियमस्य अन्वयः भवति. ऋकारस्य स्थाने उकारः, ततः परं गुणसन्धिः रामोऽस्ति, ततः पूर्वरूपं गुणसन्धिः पूर्वरूपं रामोऽस्ति इत्येवं प्रक्रिया पाणिनेः. इदानीम् अत्र प्रश्नः, ससजुषोरुः इति सूत्रम् अष्टमाध्यायस्य द्वितीयपादे अस्ति. ससजुषोरुः इति सूत्रम् अष्टमाध्यायस्य द्वितीयपादे अस्ति. इदं सूत्रं षष्ठाध्यायस्य प्रथमपादे अस्ति. अतः ससजुषोरुः इति सूत्रस्य प्रवृत्तेः परम् अतोरोरप्लुतादप्लुते इति सूत्रस्य प्रवृत्तिः न भवति. इदं त्रिपाद्यामस्ति, इदं सपासप्ताध्यायाम् अस्ति. एवञ्च सो रामस् पुनः समानम् उदाहरणं, रामस् देन् ससजुषोरुः, रामर् रामर् इति ससजुषोरुः इति सूत्रेण भवति सकारस्य स्थाने रेफः. इदानीम् अतोरोरप्लुतादप्लुते इति सूत्रस्य प्रवृत्तिः वस्तुतः न भवेत्. एक्चुलि दिस् रूल् शुड् नाट् बि अप्लैड् एस् वि डिस्कस्ड् जस्ट् नौ बिकास् इट् इस् इन् षष्ठाध्याय, षष्ठाध्यायस्य प्रथमपादे अस्ति. किन्तु पाणिनि सेस् अत्र सि अतः रोः इति वदति. सि पाणिनि यूस्ड् द वर्ड् रोः. हियर् आल्सो यु केन् सी रुः, रुः इस् प्रथमा विभक्ति एण्ड् रोः षष्ठी विभक्ति आफ् द सेम् वर्ड् रुः एण्ड् रोः. ससजुषो रुः प्रथमा विभक्तिः, तस्य एव षष्ठी रोः इति अस्मिन् सूत्रे अस्ति. अत्र अतः रोः इति पाणिनिना रोः इति पदम् उच्चारितम्. यद्यपि इदं सूत्रम् अष्टमे अध्याये अस्ति ससजुषोरुः इति सूत्रं, तथापि पाणिनिना किं कृतं, रोः इति पदम् अस्मिन् सूत्रे उच्चारितम्. अतः रोः इति उक्त्वा, रोः इति उच्चार्य कार्यं विहितम् इत्यतः ससजुषोरुः इति सूत्रं यद्यपि असिद्धम्, यद्यपि असिद्धं मीन्स् दो दिस् अतोरोरप्रदादप्रदे डजन्ट् नो ससजुषोरुः, सिन्स् पाणिनि यूस् द वर्ड् रोः विच् इस् देर् इन् दिस् सूत्र, even after applying sasadisho ruhu, we can apply ato rora pradana daprute. So this is an exception to the previously discussed asiddhatva. So since Panini used this word, he took the same word which is there in Ashtamadhyaya Dvitiya Pada, he took the same word and he used it in Shashtadhyaya. This, even after applying Sasasho Ruhu, which is in Tripadi, we can apply Atoro Raprata Daprute. Ataha Kimbhavati Ramar Iti Rephasya Sthane Anena Sutrena Uhu Ukaraha Bhavati Rama U Asti. Itevam Ukaraha Pravartate. Rama U Asti. Okay. Yes, Kalyan Krishnanji, Samyak. So here is an exception to his own rule. Yes. So there are such exceptions to his rule. Okay. So, and since he used the same word, this is an exception. Otherwise, we can't apply rules like this. Okay. Is it clear? Idam prashnam kim? The prashna asti. Parvatanathanji? Prashna asti kim?
Mama prashna asti. Parvatanathaha.
Madantu.
Are there too many exceptions? Then it is confusing. Panini could have done something to reduce the exceptions.
He tried to reduce, therefore he wrote only 4,000 sutras. He did all the efforts to reduce these exceptions.
Okay, thank you.
Okay. Yeah. Rauji, prashna asti va?
Yeah, prashna asti. Atoro raputa rapte. Whenever you use the takara ending, it applies only to that letter before the takara, at, right?
So
it is at. It's clearly said at is only a, then he says apluta. Hraswa dirgha pruta applies to all vowels, and a,
yes.
a, these are the three forms of a. When yes. when he says only comes after a, what is the necessity to again repeat pratat and aprite?
Yes, uttamaha prashnaha, but I can't answer this today. Again, it takes time. Again, this is related with Tripadi. The word he used apruta because again there is some connection with Tripadi and Sapasaptadhyayi. So that I will explain in tomorrow's class. Shwahavadani. Otherwise, again it will confuse if I explain today. Ataha aham shwahavadami.
That's the time is also up again.
Uttamaha prashnaha. Yes. Astu, dhanyavada. Ramanujanji, prashna vartate kim?
Namaste. Could you please explain how Ramar became Ramaha in the Prathama Vibhakti?
Okay. Yes. So, atra Ramas Su Pratyaya asti. Rama plus Su Ramas is a Pratyaya. Su is a Pratyaya. Then, by this rule, Sasadisho Ruhu, which is here, Sasa Jusho Ruhu. By this rule, Sakarasya Sthane Rakaraha.
Okay.
So, Ramar. Then, by this rule, Karavasana Yoho Visarjaniyaha.
Oh, okay.
R gets Visarga.
Okay. Ramar. Thank you. Okay. Dhanyavada. Thank you.
I got a quick question. you know, he could have avoided this exception to himself by putting that atoro ruhu right after sasajuro ruhu again, so that he can go both ways.
No, again, the problem is if he puts this atoro rapradada prati after sasajuro ruhu, sandhirus are not applicable. See, now Ramosti, you applied Guna Sandhi, then Pururupa Sandhi. These rules are not applicable. Again, he has to find some way to apply those rules.
I guess he must have been struggling.
Yes, yes. So this is the easiest way of doing this thing.
Now, there is not that many exceptions, but, you know, I'm sure he tried to fix it, but he just couldn't.
Yes, yes, yes. Yes. So ayam ekaya upaya tena drishtah.
I mean, this is the only problem, you know. He has done very well. but it appears to me that when you apply the subandhas to the pratipadigams, as you go forward from ra to u to ra, whatever, you know, applying that backwards sort of results in sandhis, it looks like it. I'm not sure.
No, I didn't get.
Now, you know, the order in which you take the pratipadigam and then you apply the u and the ru and then you get the final padam. Likewise, if you go backwards, it kind of looks like the sandhis are being developed as you go backwards. I'm not sure in terms of the pattern.
Anyhow, not important. Let's move on. Okay. Thank you. Thank you. Can a previous Tripadi Sutram be an apavada or a para Tripadi Sutram? Yeah, there are some exceptions. Again, can a previous Tripadi Sutram be an apavada of a para Tripadi Sutram? Yeah, there are such rules. So all type of exceptions are there in Ashtadhyayi, but there are a few exceptions. So generally, these Sapasaptadhyayi Tripadi is generally applicable, but there are some exceptions to those to that asiddhatva. Okay. Astu punaha shvaha chintayamaha shvaha pratah itopi atra aplutat aplute iti padam prayuktam panina kimartham prayuktam iti vishaye chintaniyam asti tad vishaye aham shvaha vadishyami punaha tada charcham kurmaha adya atra samapayami. Astu vakyakaram pararuchim bhashyakaram patanjalim paninim sutrakaranta pranatosmi munitrayam. Astu punarmilamah.